ओम नमो भगवते वासुदेवाय। अथ त्रिचत्वारिंशोऽध्यायः। श्री शुक उवाच, अथ कृष्णश्च रामश्च कृतशौचौ परन्तप। मल्लदुन्दुभिनिर्घोषम् श्रुत्वा द्रष्टुमुपेयतुः। रङ्गद्वारम् समासाद्य तस्मिन्नागमवस्थितम्। अपश्यत् कुवलया पीडम् कृष्णोऽम्बष्ठप्रचोदितम्। बद्ध्वा परिकरम् शौरिः समुय्यकुटिलालकान्। उवाच हस्तिपम् वाचा मेघनादगभीरया, अम्बष्ठाम्बष्ठमार्गम् नौ दह्यपक्रममाचिरम्। नो चेत् सकुञ्जरम् त्वाद्य नयामि यमसादनम्। एवम् निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितम् गजम्। चोदयामास कृष्णाय कालान्तकयमोपमम्। करीन्द्रस्तमभिद्रुत्य करेण तरसा ग्रहीत्। कराद्विगलितः सोमुम् निहत्याङ्घ्रिष्वलीयत। सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम्। परामृषत्पुष्करेण सप्रसय्य विनिर्गतः। पुच्छे प्रगृह्याति बलम् धनुषः पञ्चविंशतिम्। विचकर्ष यथा नागम् सुपर्ण इव लीलया। सपर्यावर्तमानेन सव्यदक्षिणतोच्युतः। बभ्रामभ्राम्यमाणेन गोवत्सेनेव बालकः। ततोऽभिमुखमभ्येत्य पाणिना हत्यवारणम्। प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे। सधावन् क्रीडया भूमौ पतित्वा सहसोत्थितः। तम् मत्वा पतितम् क्रुद्धो दन्ताभ्याम् सोहनत्क्षितिम्। स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः। चोद्यमानो महामात्रैः कृष्णमभ्यद्रवदृशा। तमापतन्तमासाद्य भगवान् मधुसूदनः। निगृह्य पाणिना हस्तम् पातयामास भूतले। पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया। दन्तमुत्पाट्य तेनेभम् हस्तिपांश्चाहनद्धरिः। मृतकम् द्विपमुत्सृज्य दन्तपाणिः समाविशत्। अंसन्यस्तविषाणो श्रृङ्ग मदबिन्दुभिरङ्कितः। विरूढस्वेदकणिकावदनाम्बुरुहो बभौ। वृतौ गोपैः कतिपयैर्बलदेव जनार्दनौ। रङ्गम् विविशतु राजन् गजदन्तवरायुधौ। मल्लानामशनिर्नृणाम् नरवरः स्त्रीणाम् स्मरो मूर्तिमान्। गोपानाम् स्वजनो सताम् क्षितिभुजाम् शास्ता स्वपित्रोः शिशुः। मृत्युर्भोजपतेर्विराडविदुषाम् तत्त्वम् परम् योगिनाम्। वृष्णीनाम् परदेवतेति विदितो रङ्गम् गतः साग्रजः। हतम् कुवलया पीडम् दृष्ट्वा तावपि दुर्जयौ। कंसो मनस्व्यपि तदा भृशमुद्विजे नृप। तौरेजतु रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ। यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम्। निरीक्षतावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप। प्रहर्षवेगोत्कलिते क्षणाननाः पपुर्नतृप्ता नयनैस्तदाननम्। पिबन्त इव चक्षुर्भ्याम् लिहन्त इव जिह्वया। जिग्रन्त इव नासाभ्याम् शिष्यन्त इव बाहुभिः। ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम्। तद्रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव। एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि अवतीर्णा विहांसेन वसुदेवस्य वेश्मनि। एष वै किल देवक्याम् जातो नीतश्च गोकुलम्। कालमेतम् वसन् गूढो ववृधे नन्दवेश्मनि। पूतनानेन नीतान्तम् चक्रवातश्च दानवः। अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः। गावः सपाला एतेन दावाग्नेः परिमोचिताः। कालियो दमितः सर्प इन्द्रश्च विमदः कृतः। सप्ताहमेकहस्तेन धृतोद्रिप्रवरो मुना। वर्षवाताशनिभ्यश्च परित्रातम् च गोकुलम्। गोप्योऽस्य नित्यमुदितहसितप्रेक्षणम् मुखम्। पश्यन्त्यो विविधान्स्तापान्स्तरन्ति स्माश्रमम् मुदा। वदन्त्यनेन वंशोऽयम् यदोऽसु बहुविश्रुतः। श्रियम् यशो महत्त्वम् च लप्स्यते परिरक्षितः। अयम् चास्याग्रजः श्रीमान् रामः कमललोचनः प्रलम्बो निहतो येन वत्सको ये बकादयः जनेष्वेवम् ब्रुवाणेषु तूर्येषु निनदत्सु च। कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत्, हे नन्दसूनो हे राम, भवन्तौ वीरसम्मतौ नियुद्धकुशलौ, श्रुत्वा राज्ञाहूतौ दिदृक्षुणा। प्रियम् राज्ञः प्रकुर्वन्त्यः श्रेयो विन्दन्ति वै प्रजाः, मनसा कर्मणा वाचा विपरीतमतोऽन्यथा। नित्यम् प्रमुदिता गोपा वत्सपाला यथा स्फुटम्, वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः। तस्माद् राज्ञः प्रियम् यूयम् वयम् च करवामहे, भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः। तन्निशम्याब्रवीत् कृष्णो देशकालोचितम् वचः, नियुद्धमात्मनोभीष्टम् मन्यमानोऽभिनन्द्य च। प्रजाभोजपतेरस्य वयम् चापि वनेचराः, करवाम प्रियम् नित्यम् तन्नः परमनुग्रहः। बाला वयम् तुल्यबलैः क्रीडिष्यामो यथोचितम्, भवेन्नियुद्धम् मा धर्मः स्पृशेन्मल्लसभासदः। चाणूर उवाच, न बालो न किशोरस्त्वम् बलश्च बलिनाम् वरः, लीलये भो हतो येन सहस्रद्विपसत्त्वभृत्। तस्माद् भवद्भ्याम् बलिभिर्योद्धव्यम् नानयोऽत्र वै, मयि विक्रमवार्ष्णेय बलेन सह मुष्टिकः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे कुवलया पीडवधो नाम त्रिचत्वारिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम् भोजे रतिः स्यात् अनपायिनी।